ओम नमो भगवते वासुदेवाय श्री भगवानुवाच भूये वमः बाहो शृणु मे परम वज यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया नमे विदुःसुरगणा प्रभवं न महर्षय अहमादिभिः देवानां महर्षीणां च सर्वजः ये मामजमनाचिन्तयो वेत्ति लोकमहेश्वरम् असम्मूढसमर्थ्येषु सर्वपापैः प्रमुच्यते बुद्धिर्ज्ञानमसम्मोहक्षमा सत्यं नमः शमः सुखं दुःखं भवोभावो भयं च भयमेव च अहिंसा समता तुष्टिस्तपोदानं यशो यश भवन्ति भावाभूतानां मत्त एव पृथग्विधाः महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा मद्भावा मानसा जाता येषां लोकमाः प्रजाः एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः सो विकम्पेन योगेन युज्यतेनात्र संशयः अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इति मत्वा भजन्ति मां बुधा भावसमन्विताः मच्चित्ता मद्गतप्राणां बोधयन्तः परस्परं कथयन्तश्च मां नित्यं दुष्यन्ति धर्मन्ति च तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ददामि बुद्धियोगं तं येन मामुपयान्ति ते तेषामेवानुगं वार्तमहमज्ञानजं तमः नाशयात्मात्मभावस्थो ज्ञानदीपेन भास्वरार्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा असितो देवलो व्यास स्वयं चैव ब्रवीषिमि सर्वमेतद्धृतं मन्ये यन्मां वदसि केशव नहि ते भगवन् व्यक्तिं विदुर्देवानदानवाः स्वयमेवात्मनात्मानं वेत्थत्वं पुरुषोत्तम भूतभावनभूतेशा देवदेव जगत्पते वक्तुमर्हस्य शेषेण दिव्याह्यात्मविभूतया याभिर्विभूतिभिर्लोकानि मां स्त्वं व्याप्यतिष्ठसि कथं विद्यामहं योगिं स्त्वां सदा परिचिन्तयन् केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया विस्तरेणात्मनो योगं विभूतिं च जनार्दन भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मे मृतम् श्रीभगवानुवाच हन्तते कथयिष्यामि दिव्याह्यात्मविभूतयः प्राधान्यतः कुरु श्रेष्ठा नास्त्यन्तो विस्तरस्य मे अहमात्मा गुणाकेशाः सर्वभूताशय स्थितः अहमादिश्च मध्यं च भूतानामन्त एव च आदित्यानामहं विष्णुर्ज्योतिषां रविरं शुमान् मरीचिर्मरुदामस्मि नक्षत्राणामहं शशि वेदानां सामवेदोऽस्मि देहानामस्मि वासः इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतन रुद्राणां शङ्करश्चास्मि वित्तेषु यक्षरक्षसां वसूनां पावकश्चास्मि मेरुशिखरिणामहम् पुरोधसां च मुख्यं मां वीर्थिपार्थ बृहस्पतिं सेनानीनामहं स्कन्दः सरसामस्मि सागरः महर्षीणां भृगुरहं गिरामस्मेकमक्षरम् विज्ञानां जपयज्ञोऽस्मि स्थावराणामिमालयः अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः गन्धर्वाणां चित्तरथः सिद्धानां कपिलो मुनिः उच्चैश्रवसमश्वानां विद्धि मामृतोद्भवम् ऐरावतं गजेन्द्राणां नराणां च नराधिपम् आयुधानामहं वज्रं धेनूनामस्मि कामधुग् व्रजनश्चास्मि गन्धर्पः सर्पाणामस्मि वासुकी अनन्तश्चास्मि नागानां वरुणो यादसामहं पितॄणां हर्यवाचास्मि यमः संयमतामहं प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहं मृगाणां च मृगेन्द्रोऽहं वैनगैयश्च पक्षिणां पवनः पवतामस्मि रामः शस्त्रभृदामहं जषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी सर्गाणाम् आग्रन्थश्च मध्यं चैवामर्जुन अध्यात्मविद्याविद्यानां वादः प्रवदतामहम्। अक्षराणाम अकारोऽस्मि द्वन्द्वसामासिकस्य च अहमेव अक्षरः कालो धाता अहं विश्वतो मुखः मृत्युः सर्वहरश्चाहम् उद्भवश्च भविष्यताम् कीर्तिश्रीर्वाचनारीणाम् स्मृतिर्मेधाधृतिक्षमा बृहत्साम रथासाम्नाम् गायत्री छन्दसामहम् मासानाम् मार्गशीर्षोऽहम् ऋतूनाम् कुसुमाकरः द्यूतम् चलयतामस्मि तेजस्तेजस्विनामहम् जयोऽस्मि व्यवसायोऽस्मि सत्त्वम् सत्त्ववतामहम् वृष्णीनाम् वासुदेवोऽस्मि पाण्डवानाम् धनञ्जयः मुनीनामप्यहम् व्यासः कवीनामुजनाः कविः दण्डोदमयतामस्मि नीतिरस्मि जिगीषताम् मौनम् चैवास्मि गुह्यानाम् ज्ञानम् ज्ञानवतामहम् यच्चापि सर्वभूतानाम् बीजम् तदहमर्जुन न तदस्ति विना यत्स्यान्मया भूतम् चराचरम् नान्तोऽस्ति मम दिव्यानाम् विभूतीनाम् परम् तप एष तुद्देशतः प्रोक्तो विभूतेर्विस्तरो मया यद्यद्विभूतिमत्सत्त्वम् श्रीमदूर्जितमेव वा तत्तदेवावगच्छत्वम् मम तेजोंश सम्भवम् अथवा बहुनैतेन किम् ज्ञातेन तवार्जुन विष्टभ्याहमिदम् कृत्स्नम् एकांशेन स्थितो जगत् ॐ दत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः।